तरतु दुर्गाणि सर्वो भद्राणि पश्यतु सर्वः कामान् अवाप्नोतु सर्वः सर्वत्र नन्दतु ऐ श्रोतारः भवद्भ्यः सर्वेभ्यः नववर्षस्य हार्दिक्यः शुभाशयाः अहम् ऋचा झा कार्यक्रमस्योद्घोषिका स्वागतम् करोमि भवताम् समेषाम् आगच्छन्तु श्रोतारः नववर्षस्य अस्य कार्यक्रमस्य च प्रारम्भम् कुर्मः सुभाषितेन यत् प्रस्तौति अस्माकम् सहयोगी पुनीत त्रिपाठी
पुण्यसञ्चय सम्प्राप्तम् अधिगण्य नृपश्रियम् वञ्चयेद् यः सुहृद्बन्धून् स भवेद् विफलश्रमः। अर्थात् पुण्य संचय से प्राप्त राज्यश्री को पाकर जो व्यक्ति अपने बंधु बांधवों को ठगता है, कालांतर में उसका सारा परिश्रम व्यर्थ जाता है।
समीचीनम्। भोः श्रोतृवृन्दाः, यथा जानीमो एव वयम् यत् सद्य एव अयोध्यायाम् भगवतः श्रीरामस्य प्राणप्रतिष्ठायाः तिथौ प्रतिष्ठा द्वादशी महोत्सवः आचरितः। अतः आगच्छन्तु एतस्मिन् शुभावसरे अग्रिमे प्रसङ्ग प्रभागे शृण्मः श्रीराम पञ्चरत्नम् रिङ्कु जोशिना।
कञ्जायत पत्राय तलोचनाय कर्णावतम् सोज्ज्वल कुण्डलाय कारुण्य पात्राय सुवंशजाय नमोस्तु रामाय सलक्ष्मणाय विद्युन्निभाम्बूद सुविग्रहाय विद्याधरैः संस्तुत सद्गुणाय वीरावताराय विरोधिहन्त्रे नमोस्तु रामाय सलक्ष्मणाय संसक्त दिव्यायुध कार्मुकाय समुद्रवर्गापहरायुधाय सुग्रीव मित्राय सुरारिहन्त्रे नमोस्तु रामाय सलक्ष्मणाय पीताम्बरालङ्कृत मध्यकाय पितामहीन्द्रामरवन्दिताय पित्रे स्वभक्तस्य जनस्य मात्रे नमोस्तु रामाय सलक्ष्मणाय नमो नमस्तेऽखिल पूजिताय नमो नमश्चन्द्र निभाननाय नमो नमस्ते रघुवंशजाय नमोस्तु रामाय सलक्ष्मणाय इमानि पञ्चरत्नानि त्रिसन्ध्यं यः पठेन्नरः सर्वपाप विनिर्मुक्तः स याति परमां गतिम्।
अहो सुन्दरम्। सम्प्रति सप्ताहस्य प्रमुखाः वार्ताः आदाय उपस्थिता अस्ति मुदिता वेतालः। आगच्छन्तु जानीमः साप्ताहिकी वार्ताः।
प्रधानमन्त्री नरेन्द्र मोदी कथितवान् यत् भारतम् रिफॉर्म एक्सप्रेस इति दोष निवृत्ति पथे अग्रेसरत् वर्तते। प्रधानमन्त्रिणा नरेन्द्र मोदिना एषमः रिफॉर्म एक्सप्रेस इति विषये दिसम्बर मासस्य त्रिंशे दिनांके एकः लेखः लिखितः आसीत्, यत्र शासनस्य तेषां संचय कार्याणां विवरणं प्रस्तुतं यैः शनैः शनैः बाधाः निराकृताः। DRDO इति रक्षानुसन्धान विकास संघटनेन मंगलवासरे ओडिशायाः चांदीपुरस्य एकीकृत परीक्षण स्थलात् पिनाका गाइडेड रॉकेट इत्यस्य प्रथमं सफलोड्डयन परीक्षणं कृतम्। बांग्लादेशस्य पूर्व प्रधानमंत्री पदासीना खालिदा जिया पंचत्वे नीलिना। 80 वर्षीया खालिदा जिया ढाकायां प्रशासनेतर चिकित्सालये उपचर्यमाणा आसीत्। भारत श्रीलंका दलयोः महिलानां 20-20 स्पर्धा मालिका भारतेन विजिता। भारतीय महिला वृन्देन एतस्याः श्रृंखलायाः सर्वाः अपि 5 स्पर्धाः विजिताः। धन्यवादः।
अस्तु श्रोतारः, अग्रिमे ज्ञानविज्ञान प्रभागे अस्माकं ज्ञानस्य संवर्धनाय अद्य अस्माभिः सह उपस्थितो अस्ति अस्माकं सहयोगिन्या निधि झा इत्यनया सह दिल्ली विश्वविद्यालयस्य संस्कृतविभागस्य आचार्यः प्रोफेसर दयाशंकर तिवारी महोदयः।
अभिवादये मित्राणि। अद्य अस्माभिः साकं ज्ञानविज्ञान प्रभागे वर्तन्ते दिल्ली विश्वविद्यालये संस्कृत विभागस्य प्राध्यापकाः प्रोफेसर दयाशंकर तिवारी महाभागाः। इति अहर्निशं संस्कृतं सेवमानाः विद्यन्ते। महोदयानाम् अहं हृत्पूर्वकं स्वागतं व्याचष्टे। आकाशवाणी पक्षतः अहं निधिझाः स्वागतं व्याचष्टे।
धन्यवादः
महोदयः। प्रथमः तावत् प्रश्नः, राष्ट्रिय शिक्षा नीतिः 2020 भारतीय ज्ञान परम्पराम् प्रोत्साहयति। भारतीय ज्ञान परम्परायाः गणित क्षेत्रे भवदीयं योगदानं सुविदितमेव वर्तते, तत्र भवदीयः को अनुभवः?
राष्ट्रिय शिक्षा नीतिः 2020 भारतीय ज्ञान परम्पराम् प्रोत्साहयति, अवश्यमेव वर्धयति च। प्राचीनकाले भारतीय गणितीय बौद्धिक सम्पदायाः विकासस्तु वैज्ञानिक दृष्ट्या सह अत्यधिकः आसीत्, यतोहि आधुनिक विद्वांसः इत्यस्मिन् ज्ञानस्य अन्वेषणे संलग्नाः सन्ति। भारतवर्षे अद्भुत्रयाणां योजनाया अवधारणा विकसिता आसीत्, यथा दशमांक पद्धति डेसिमल सिस्टम इति, मूल्यस्थानं प्लेस वैल्यू इति, संगणकीय शून्यं च कंप्यूटेशनल जीरो इति, वयं संख्या विषयकं चतस्रः मौलिक गणितीय संक्रियाः धन ऋण गुण विभागादीनां ज्ञानं, बौधायन सूत्रं पाइथागोरस सिद्धान्तः इति, परिधि व्यासयोः अनुपातः आई इति, अनंतस्य अवधारणा, बीजगणितस्य विकासः, अंकगणित ज्यामिति इत्यादीनां उद्भवः, विकासश्च विकासक्रमश्च वेदेषु ब्राह्मणग्रन्थेषु उपनिषत्सु रामायण महाभारत वेदांगशूलसूत्रेषु आर्यभटीय लीलावती बीजगणित ब्राह्मस्फुट सिद्धांत त्रिशतिका महासिद्धांत शिरोमणि इत्यादिषु ग्रन्थेषु प्राप्नुमः। आधुनिक विश्वे विद्वद्भिः इति स्वीक्रियते यत् बहूनां गणितीय गणितीयांशानां आरंभ भारतवर्षे इव जातः। एवं हि गणितक्षेत्रे बहूनि अपूर्वाणि मूलभूतानि अनुसंधानानि अत्र एव अभवन्। अनन्तरं भारतस्य ज्ञान परम्परा अन्येषु देशेषु प्रसारिता। यथा उदाहरणं ददामि, मंजुल भार्गवः महोदयः भारतीय मूलस्य कनाडियन अमेरिकन गणितज्ञः, यः प्रिंस्टीन विश्वविद्यालये युवकः आचार्यो अस्ति। तेन महोदयेन ब्रह्मगुप्तस्य ब्राह्मस्फुट सिद्धान्तस्योपरि आधृत संख्यानाम् अन्वेषणं कृतम् अस्ति। 21वीं शताब्दे महान गणितज्ञ सीएफ गौस महोदयस्य मंजुल भार्गवः 200 वर्षाणि कृतिमानं स्थापितवान्। क्यूबिक हायर डिग्री फार्म सिद्धांतस्य अन्वेषणं कृतवान्, कारणं यत् गौस महोदयेन द्विखंडन द्विघात समीकरणस्य विनरी क्वाड्रेटिक फॉर्म्स इति मूलभूत संरचनायाः सिद्धांत इति प्रतिपादितः। परन्तु कश्चित् सिद्धांत सूत्रं वा क्यूबिक हायर डिग्री फॉर्म इत्यस्योपरि न प्रदत्तम्। मंजुल भार्गव संख्या सिद्धांतस्योपरि फील्ड मेडल यत् गणितस्य नोबेल पुरस्कारः कथ्यते, फील्ड मेडल इति पुरस्कारं 14,000 ख्रीष्टाब्दस्य अगस्त मासस्य 13 दिनांके प्राप्तवान्। अनेन प्रकारेण भारतीय गणित परम्परायाः प्रासंगिकता आधुनिक काले अपि विराजते।
एवं महोदय, बहु शोभनम्। अस्मिन्नेव क्रमे द्वितीयोऽयं प्रश्नः, भारतीय ज्ञान परम्परायाः का दृष्टिः? कथं लौकिकाः सामान्याः जनाः इमां परम्पराम् अवगत्य कार्योन्मुखाः भवितुम् अर्हन्ति?
भारतीय ज्ञान परम्परा तु जनसामान्यानां कृते अस्ति एव, वयं जानीमः। जीवनस्य कलां शिक्षयति इति भारतीय ज्ञान परम्परा। यथा श्रीमद्भगवद्गीतां पठित्वा सामान्याः जनाः कर्मणि कुशलतां प्राप्नुवन्ति, निष्कामकर्मणि च प्रवृत्ताः भवन्ति। यथा भगवता श्रीकृष्णेन गीतायाः द्वितीय अध्याये कथितं यत् कर्मण्येवाधिकारस्ते मा फलेषु कदाचन इति. अदत्वे जनाः अधिकं चिन्तिताः भवन्ति. यदि ते दर्शनं पुराणम् इत्यादि शास्त्रं पठन्ति तर्हि ते स्वजीवनस्य मुख्यं लक्ष्यम् अवगन्तुं प्रभवन्ति. मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव, अहं तु कथयामि राष्ट्रदेवो भव अपि स्वाध्यायान् मा प्रमदितव्यं, सत्यं वद, धर्मं चर इत्यादि कथनं तु अस्माकमेव शास्त्राणां वर्तते. पुनश्च सामान्यानां जनानां कृते एव वर्तते. यदि ते शास्त्राणाम् अनुपालनं कुर्वन्ति तर्हि जीवने सुखिनः भवन्ति. अवश्यमेव एषा एव खलु भारतीय ज्ञान परम्परायाः दृष्टिः.
सत्यं महोदय, एषा एव भारतीय ज्ञान परम्परायाः दृष्टिः. आम्, अस्मिन्नेव क्रमे अन्तिमोऽयं प्रश्नः. दिल्ली विश्वविद्यालयस्य संस्कृत विद्यार्थिनः अथवा संस्कृतज्ञाः भारतीय ज्ञान परम्परायाः प्रसारं प्रचारं च समर्थयितुं तस्यां दिशि कार्यं कर्तुं स्वज्ञानं कौशलं च उपयोक्तुं कथं कार्यं कुर्वन्ति?
शोभनम्, दिल्ली विश्वविद्यालयस्य संस्कृत छात्राः भारतीय ज्ञान परम्परायाः प्रसारं प्रचारं च समर्थयितुं निश्चप्रचं कार्यं कुर्वन्ति. अत्रत्य प्राध्यापकाः सर्वान् विषयान् तथा तद्यथा साहित्यं, दर्शनं, व्याकरणं, ज्योतिषं, साहित्य इतिहासं, पुरालिपिशास्त्रं, खगोलशास्त्रं च पाठयन्ति. छात्राः स्वेच्छया विषयान् अधीत्य भारतीय ज्ञान परम्परायाः प्रसारं कुर्वन्ति. कदाचित् पत्राणि, शोधपत्राणि च लिखन्ति. अस्यां दिशि कार्यं कर्तुं मुख्यरूपेण शोधछात्राः अध्ययनं कारं अपि वारं वारं स्वशोधकार्ये तुलनात्मकम् अध्ययनं, विश्लेषणात्मकम् अध्ययनं च कुर्वन्ति. अनेन माध्यमेन छात्राः स्वज्ञानं कौशलं च उपयुज्य कार्योन्मुखाः भवन्ति. अवश्यमेव दिल्ली विश्वविद्यालये अस्माभिः संस्कृतभाषायाः परिष्कारार्थं संस्कृतभारत्याः सह संयुक्तत्वावधाने भाषा शिविराणि च प्रचाल्यन्ते, येन ते संस्कृतलेखने, पठने, वदने च समर्थाः भवेयुः.
धन्यवादाः. भवन्तः स्वकीयम् अमूल्यमपि नैजं समयं कल्पितवन्तः. एतदर्थम् आकाशवाणी पक्षतः धन्यता वचांसि आविष्क्रियते.
अवश्यमे शोभनम्, धन्यवादम्, व्याहरामि.
धन्यवादः.
अयि प्रियाः श्रोतारः, अधुना क्रमो वर्तते संस्कृतदिग्दर्शनस्य. अस्मिन् प्रभागे अस्माकं सहयोगिनी साधना शर्मा संस्कृतस्य प्रवर्धनाय जगति अनुष्ठिताः संस्कृतभाषायाः तत्सम्बन्धितानां च वार्ताः प्रस्तौति.
केन्द्रीय संस्कृत विश्वविद्यालयेन कम्प्यूटर टैलेंट हंट इत्यस्य द्वितीय चरण प्रशिक्षणार्थं षोडश छात्राणां चयनसूची प्रकाशिता. विश्वविद्यालयेन त्रयः संस्कृतग्रन्थाः यथा प्रतिपद प्रकाशः, श्रौतयज्ञः इति संस्कृतग्रन्थाः प्रकाशिताः. महर्षि सान्दीपनी राष्ट्रिय वेद विद्या प्रतिष्ठाने संस्कृतेन सह वेद, गणित, आङ्गल, सामाजिक विज्ञान विषयेषु 26 रिक्तपदानि घोषितानि. केन्द्रीय संस्कृत विश्वविद्यालयस्य श्री रणवीर परिसरः शोध पत्रिकायै शोध पत्र प्रेषणार्थम् आमन्त्रणं कृतवान्. वेदव्यास परिसरेण च शोधपत्रस्य आह्वानं कृतं शोधपत्रिकायै. संस्कृत भारती विहार प्रांत द्वारा आवासीय प्रबोधन वर्ग सम्पन्न.
अयि श्रोतृवृन्दाः, चलामस्तावत् बाल श्रोतृभ्यः समर्पिते अग्रिमे बालवल्लरी प्रभागे, यत्र बालानां मनोरञ्जनाय सुषमा कुमारी प्रस्तौति एकां कविताम्.
बालाः, अद्य अहं सुन्दर सुरभाषा इत्यस्मिन् विषयम् आधृत्य एकां कवितां श्रावयिष्यामि. मुनिवर विकसित कविवर विलसित मञ्जुल मञ्जूषा सुन्दर सुरभाषा, अयि मातस्तव पोषण क्षमता मम वचनातीता. सुन्दर सुरभाषा मुनिवर विकसित कविवर विलसित మంజుల మంజూష సుందర సుర భాష వేద వ్యాస వాల్మీకి మునీనాం కాళిదాస బాణాది కవీనాం పౌరాణిక సామాన్య జనానాం జీవనస్య ఆశా సుందర సుర భాష మునివర వికసిత కవివర విలసిత మంజూష మంజులా సుందర సుర భాష శ్రుతి సుఖ నినదే సకల ప్రమోదే స్మృతి విహిత వరదే సరస వినోదే గతిమతి ప్రేరక కావ్య విశారదే తవ సంస్కృతి రేషా సుందర సుర భాష నవరస రుచిరాలంకృతి ధారా వేద విషయ వేదాంత విచారా వేదా వ్యోమ శాస్త్రాది విహారా విజయతి ధరాయాం సుందర సుర భాష మునివర వికసిత కవివర విలసిత మంజుల మంజూష సుందర సుర భాష.
ప్రియాః సహృదయాః శ్రోతారః, ఇదానీం అగ్రిమః ప్రభాగో అస్తి ఏకం భారతం శ్రేష్ఠం భారతమితి, యత్ర అస్మాకం సహయోగి లలిత మోహన తివారి శ్రావయతి సంస్కృత హిందీ ఒడియా భాషాసు కానిచన వాక్యాని.
ప్రథమం వాక్యం అస్తి, ఏతత్ నవవర్షం అస్మాకం జీవనం నూతనాభి ఆశాభి నూతనేహి చ అవసరై సహ ఆగచ్చతు. యహ వర్ష హమారే జీవన్ మే నయీ ఆశాయే ఔర్ నయీ అవసర్ లేకర్ ఆయే. ఒడియా భాషా మే ఏహి నవవర్ష ఆమ జీవనరే నూతన ఆశా ఓ నూతన సుజోగ్ ఆని నయీ ఆసు. ద్వితీయం వాక్యం అస్తి, ఏతత్ వర్షం సర్వేషాం కృతే సుఖ శాంతి సమృద్ధే సందేశం వహతు. యహ వర్ష సభీ కే లియే సుఖ శాంతి ఔర్ సమృద్ధి కా సందేశ దే. ఒడియా భాషా మే ఏహి వర్ష సమస్తం కా పాయి సుఖ శాంతి ఓ సమృద్ధర సందేశ నయీ ఆసు. తృతీయం వాక్యం అస్తి, వయం నవవర్షే సద్విచారాణాం సత్కర్మణాం చ సంకల్పం కుర్యాం. హమ్ నయే సాల్ మే అచ్చే విచారో ఔర్ అచ్చే కర్మో కా సంకల్ప లే. ఒడియా భాషా మే ఆమె నూతన వర్షరే భల విచార ఓ భల కర్మ కరిబార సంకల్ప నేవుచు. చతుర్థం వాక్యం అస్తి, నవవర్షం అస్మాకం దేశస్య సమాజస్య చ ఉన్నతే మార్గం ప్రశస్తం కరోతు. నయా వర్ష హమారే దేశ ఔర్ సమాజ కే లియే ఉన్నతి కా మార్గ ప్రశస్త కరే. ఒడియా భాషా మే నూతన వర్ష ఆమ్ దేశ ఓ సమాజ పాయిం ఉన్నతిర పథ ప్రశస్త కరు. పంచమం వాక్యం అస్తి, ఏతత్ నవర్షం సర్వేషాం జీవనం సఫలతాభి హర్షహి చ పూరయతు. యహ నయా సాల్ సభీ కే జీవన్ మే సఫలతా ఔర్ ఖుషియాం లాయ్. ఒడియా భాషా మే ఏహి నూతన వర్ష సమస్తం కా జీవనరే సఫలతా ఓ ఖుషి నేయి అసు.
అహో సమ్యక్, భవతే ధన్యవాదాః. శ్రోతృజనాః, అధునా ఆగతో అస్తి సమయః ప్రస్థాన వేళాయాః. కింతు అగ్రిమే సప్తాహే అస్మినేవ కాలే ఏకం అభిన్నవం అంకమాదాయ పునః ఉపస్థాస్యామహే. కింతు స్మర్యతాం యద్ భవతాం సహభాగిత్వం సమర్థనం ఏవ అస్మాన్ ప్రేరయతి. అతః భవంతః సర్వే స్వీయ జిజ్ఞాసాం ప్రతిపుష్టి ప్రక్రియాం చ అవశ్యమేవ ప్రేషయంతు. అస్మాకం ఈమెయిల్ సంకేతో వర్తతే nsdsanskrit@gmail.com ఇతి. గమనాత్ ప్రాక్ ప్రార్థయామి యత్ సర్వే భవంతు సుఖినః సర్వే సంతు నిరామయాః ఇతి. ఓం నమో నమః.